पिपाच स पृथुनासो सूचानो बाधस्वद्विषो रक्षसो अमीवाः सुशर्मणो बृहदः शर्मणि स्यामग्नेरहम् सुभवस्य प्रणीतौ त्वन्नो अस्या उषसो योष्टौ त्वम् सूरबुदिते बोधिगोपाः जन्मे वनित्यन्तनजञ्जुषस्वस्तोमम् मे अग्ने धन्वा सुजात त्वन्दचक्षावृषभानो पूर्वे कृष्णास्वग्ने अरुषो विभाहि असोमेषि जपर्षिजात्यम् हत्कृधीनो राजवुसिजो जविष्ठ अशारो अग्ने वृषभो दीदेहि पुरो विश्वाः सौभगासम् जिगीवान् यज्ञस्य नेता प्रथमस्य पायोज्जातवेदो बृहदः सुप्रणीते अच्छिद्धा सर्वजरितः पुरूणि देवाङ्गच्छादीध्यानः सुमेधाः तथो न सस्नेरभिवक्षिवाजमग्ने त्वम् रोदासीनः सुमेके रमीमजमृगभजिन्भवाजानग्ने त्वम् रोदासीनः सुदोघे देवे भद्देव सुरुचारुचानो मानो मत्तस्य दुर्मतिः परिष्ठात् इलामग्ने पुरुदम् संसनिङ्गो शश्वत्तमम् गमयमानाय साध स्यान्नः सूनस्तनयो विजावाग्ने सा ते सुमतिर्भूवत्वस्मे